गणानां गणपतिगुं हवामहे कविं कवीरामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनशृण्वन्नोदिभिः सेदसादनम् प्रणो देवे सरस्वतेवाजेभिर्वाजिनीवते धेनामवित्र्यवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उदोदगिषवे नमः नमस्ते अस्तु धन्वने बाहुव्यामुदते नमः यादयिषु शिवतमा शिवम् बभूवते धनुः शिवा शरव्यायातवतया नो रुद्रमृडया या ते रुद्रशिवा तनूरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिजागशीः यामिषम् गिरिशन्तहस्ते विवर्षत्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसिः पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्चावदामसि यथा नः सर्वमिज्जगद यश्मगुं सुमना असत् अद्य वोचदति भक्ता प्रथमो दैव्योऽभिषग अहे गच्छ सर्वा जम्भयन् सर्वास्तयातु धान्यः अथो यत्ताम्रो अरुण उत बभ्रुस्सु मङ्गलः ये जे मागुम् रुद्रा अविदो दिग्जुः श्रितात् सहस्रशो वैशागुम्भेडगीमहे असुभ्यो वसत्पदिनीलग्रीवो विरोहितः उदयनम् गोपा अदृशन्नदृशन्नुदहाद्यः उदयनम् विश्वा भूतानि स दृष्टो मृडयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीरुषे अधोगे अस्य सत्त्वानोऽहम् देभ्यो करन्नमः प्रमुञ्जदन्वनत्वमुभयोरात्रियोर्जा याश्च देहस्तगिषवः परादा भगवो वप अवतत्यदनुत्वगुम् सहस्राक्षशतेषु ते निषेद्य शल्यानाम् मुखा शिवो सुमना भव विद्यम् तनुग्रवर्तिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशव आपुरस्य निशङ्गतिः या ते एतिर्मीदुष्टमहत्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयष्मया परिभुजा नमस्ते अत्वायुधाय नाथताय धृष्णवे उभाभ्यामुदते नमो बाहुभ्याम् तव धन्महे परिते धन्वनो हेतिरस्मान् वृणत्सु विश्वतः अधो यगिषु दिर्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युम् जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः।